Okay, so we learn the 34th text from chapter 9, the most confidential knowledge from Bhagavad Gita as it is. Repeat after me, Manmana.
Manmana, Manmana, Manmana.
Bhavamad Bhakto.
Bhavamad Bhakto, Bhavamad Bhakto, Bhavamad Bhakto.
Madhyaji.
Madhyaji, Madhyaji, Madhyaji.
Mam Namaskuru.
Mam Namaskuru, Mam Namaskuru.
मामे वैश्यसि
मामे वैश्यसि मामे वैश्यसि मामे वैश्यसि
युक्तैवम्
युक्तैवम् युक्तैवम् युक्तैवम्
आत्मनाम्
आत्मनाम् आत्मनाम् आत्मनाम्
मत्परायणः
मत्परायणः मत्परायणः मत्परायणः
आत्मानम्
आत्मानम् आत्मानम् आत्मानम्
मत्परायणः
मत्परायणः मत्परायणः मत्परायणः
एनी डाउट मन्मना भवमद्भक्तो
मन्मना भवमद्भक्तो मन्मना भवमद्भक्तो मन्मना भवमद्भक्तो
मध्याजि मां नमस्कुरु वैश्यसि युक्तैवम्
मामे वैश्यसि युक्तैवम् मामे वैश्यसि युक्तैवम् मामे वैश्यसि युक्तैवम्
आत्मानं मत्परायणः
आत्मानं मत्परायणः आत्मानं मत्परायणः आत्मानं मत्परायणः
I'll recite the whole verse. मन्मना भवमद्भक्तो मध्याजि मां नमस्कुरु मामे वैशसि युक्तैवम् आत्मनं मत्परायणः
मन्मना भवमद्भक्तो मध्याजि मां नमस्कुरु मामे वैशसि युक्तैवम् आत्मनं मत्परायणः
Once more. Engage your mind always in thinking of me. Become my devotee. Offer obeisances to me and worship me. Being completely absorbed in me. Surely you will come to me.